आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झाः। आदौ मुख्याः वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अब्रवीत् यत् प्रशासनं मादकपदार्थानां विरुध्य कार्याचरणं कुर्वत् अस्ति। मन की बात इत्याख्ये आकाशवाण्याः कार्यक्रमे प्रधानमन्त्री नरेन्द्रमोदी पेरिस ओलम्पियाड प्रतिस्पर्धायां भारतस्य क्रीडकान् प्रोत्साहनम् उत्साहवर्धनं च कर्तुं जनेभ्यः समाह्वानं विहितवान्। दिल्ल्याः पुरातनराजेन्द्रनगरक्षेत्रे शिक्षणसंस्थायाः अधोगृहे जलाप्लावेन त्रयाणां छात्राणां मृत्योः सन्दर्भे दिल्ली आरक्षकः शिक्षणसंस्थायाः स्वामिनं समन्वयकं च निग्रहे गृहीतवान्। अपि च क्रीडावार्तासु पेरिसनगरे प्रचल्यमाणे ओलम्पिक क्रीडायां कांस्यपदकं विजेत्रीं मनु भाकरमालक्ष्य उपराष्ट्रपतिः जगदीप धनखड़ः भूरिशः शुभकामनाः प्रयच्छत्। अथ वार्ताः विशदीकृत्य। प्रधानमन्त्री नरेन्द्रमोदी अद्य सहर्षं सगर्वं च व्यक्तमकरोत् यत् असमस्य चराईदेव मैदाम यूनेस्को इत्यस्य विश्वन्यासस्थलस्य सूच्यां समाविष्टम्। अद्य प्रातः आकाशवाण्याः मन की बात इति कार्यक्रमे राष्ट्रं सम्बोधयन् प्रधानमन्त्रिणा कथितं यत् अस्यां सूच्यां भारतस्य स्थलमिदं 43वां भविष्यति। सममेव पूर्वोत्तरस्य तावत् प्रथमः सांस्कृतिक विश्वन्यासः भवेदिति। स्थानमिदं किमर्थम् अतीव महत्वपूर्णम् इति प्रश्ने सति श्रीमोदी अवोचत् यत् चराईदेवस्थलम् अहोम राजवंशस्य प्रथमः जनपदः बभूव। प्रधानमन्त्रिणा प्रोक्तं यत् मैदान अहोम साम्राज्यस्य दिवंगतानां राज्ञां प्रति श्रद्धायाः प्रतीकः वर्तते। श्रीमोदिना उदीरितं यत् कोऽपि देशः स्वसंस्कृतिस्य उपरि गर्वं कृत्वैव प्रगतिपथे गन्तुं शक्नोति। सम्बन्धेऽस्मिन् भारते क्रियमाणानां प्रयत्नानामुपरि प्रकाशं ददन् सः परियोजनायाः उल्लेखम् अकरोत् यस्यार्थः अस्ति पब्लिक आर्ट ऑफ इंडिया। प्रधानमन्त्री अवादीत् यत् इयं परियोजना सार्वजनिक कलां लोकप्रियं करिष्यति अपि च कलाकारान् एकं भव्यं मञ्चं च प्रदास्यति। हस्तशिल्पोद्योग विषयेऽपि श्रीमोदी हरियाणायाः सार्धद्विशत महिलानां प्रशंसाम् अकरोत् यतः ताः रमणीयानां वर्णानां प्रयोगं कृत्वा वस्त्राणामुपरि चित्रकलां कुर्वन्ति। ताः महिलाः स्वयमेव प्रशिक्षणं प्राप्तवत्यः। श्रीमोदिना कथितं यत् ये जनाः पूर्वं खादी उत्पादानां प्रयोगं न कुर्वन्ति स्म अद्यत्वे गर्वेण प्रयोगं कुर्वन्ति। तेन कथितं यत् प्रथमं वारं खादी ग्रामोद्योगस्य कुलराजस्व 1.5 लाख रूप्यकाणि अभूत्। अस्मिन् प्रकरणे श्रीमोदी पेरिस ओलम्पिक्स विषयेऽपि प्रोक्तवान् यत् विश्वस्मिन् हि विश्वे भारतीय क्रीडकानां कृते भारतीय ध्वजारोहणस्य अयं महान् अवसरो विद्यते। सः जनान् क्रीडकान् प्रोत्साहयितुं तेषां मनोबलं च वर्धयितुम् आग्रहम् अकरोत्। सः मादक पदार्थानां सेवनस्य विषयेऽपि चिन्तां प्रकटितवान्। सम्प्रति प्रत्येकं परिवारः स्वबालानां विषये चिन्तां कुर्वन्ति। तेनाश्वासितं यत् प्रशासनेन मानस इति विशेषः उपक्रमो विहितः यत् मादक पदार्थानां दुरुपयोगस्य विरुद्धं कार्यं करोति। मानस इति अन्तर्जालीय पटलम् अद्यैव आरभेत। जनाः 1933 इति दूरभाषसंख्यायाः अपि प्रयोगं कर्तुं शक्नुवन्ति। अस्मिन्नेव क्रमे श्रीमोदी अवादीत् यत् श्वः अशेषे हि विश्वे अन्ताराष्ट्रिय व्याघ्र दिवसः आचर्यते। अमुना कथितं यत् व्याघ्राः भारतीय संस्कृतेः अभिन्नाः भागाः सन्ति। वनानां परितः ग्रामेषु जनाः व्याघ्रेण सह सामञ्जस्यं कृत्वा जीवितुं जानन्ति। प्रधानमन्त्री अगस्तमासस्य 15 दिनाङ्के हर घर तिरंगा इति कार्यक्रमेऽस्मिन् भागं ग्रहीतुं प्रेक्षकान् आह। हरघर तिरंगा इत्येषः कार्यक्रमः सम्प्रति अद्वितीयोत्सवेन आमन्यते इति सः अवोचत्। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयम् कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.com इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। राष्ट्रपतिः द्रौपदी मुर्मूः विभिन्नेषु राज्येषु नूतन राज्यपालानां नियुक्तिं कृतवती। महाराष्ट्र विधानसभायाः पूर्वाध्यक्षं हरिभाऊ किसनराव बागडेम राजस्थानस्य राज्यपालत्वेन नियुक्तवती। त्रिपुरायाः पूर्व उपमुख्यमंत्री जिष्णुदेववर्मा तेलंगानायाः राज्यपालत्वेन नियुक्तः। राजस्थानस्य पूर्व राज्यसभा सांसदः ओम प्रकाश माथुरः सिक्किमस्य राज्यपालत्वेन नियुक्तः। पूर्व केन्द्रीय मंत्री संतोष कुमार गंगावार झारखण्डस्य राज्यपालत्वेन नियुक्तः। असमस्य पूर्व लोकसभा सांसदः रोमेन डेका छत्तीसगढ़स्य राज्यपालत्वेन नियुक्तः। कर्नाटकस्य पूर्व मंत्री सीएच विजयशंकरः मेघालयस्य राज्यपालत्वेन नियुक्तः। सीपी राधाकृष्णन वर्तमाने झारखण्डस्य राज्यपालः अस्ति, सम्प्रति च महाराष्ट्रस्य राज्यपालत्वेन नियुक्तः। गुलाब चंद्र कटारिया यः सम्प्रति असमस्य राज्यपालः अस्ति, पंजाबस्य राज्यपालत्वेन सममेव केन्द्र शासित प्रदेश चंडीगढ़स्य प्रशासकेन नियुक्तः। लक्ष्मण प्रसाद आचार्यः यः सम्प्रति सिक्किमस्य राज्यपालः अस्ति, असमस्य राज्यपालत्वेन नियुक्तः। पूर्व आईएएस अधिकारी के कैलाशनाथन पुडुचेरी राज्यस्य राज्यपालत्वेन नियुक्तः। विदेशमंत्री डॉ एस जयशंकरः द्विदिवसीय यात्रावधौ अद्य प्रातः टोक्यो नगरे सम्प्राप्तः। जापाने भारतस्य राजदूतः सीबी जॉर्ज वर्यः विमानस्थानके विदेशमंत्रिणः एस जयशंकरस्य स्वागतं विहितवान्। अस्मिन् यात्रावधौ एस जयशंकरः जापाने निज समकक्षीयेण सुश्री योको कामिकावा वर्येण सह श्वः संजायिष्यमाणे क्वाड इति विदेशमंत्रिणोपवेशने जापान देशं प्रति सम्प्राप्स्यतः। अस्मिन् उपवेशने भारत जापान अमेरिका ऑस्ट्रेलिया चेत्येषां विदेशमंत्रिणः विगतवर्षे न्यूयॉर्क नगरे सितंबर मासे संजाते अन्तिमोपवेशने परिचर्चानामालक्ष्य अग्रेसरं भजिष्यन्ति। सममेव भारत प्रशांत क्षेत्रे विकासमालक्ष्य परिचर्चां करिष्यन्ति। लक्ष्यभेदिका मनुभाकरः अद्य पेरिस नगरे प्रचाल्यमाणे ग्रीष्मकालिक ओलंपिक क्रीडायां भारताय प्रथमं पदकं विजितवती। असौ अद्य अपराह्णे मेगा चतुष्कोणीय प्रतियोगितायाः द्वितीये दिवसे महिलावर्गे 10 मीटर मितस्य एयर पिस्टल स्पर्धायाः अन्तिमचक्रे कांस्यपदकं विजितवती। अमुम उपाधिमालक्ष्य एषा भारतस्य प्रथमा महिला लक्ष्यभेदिका संजाता। श्रीलंका देशस्य डम्बुल्ला नगरे प्रचलिष्यमाणे महिला एशिया कप 20-20 क्रिकेट क्रीडा श्रृंखलायाम् अद्य अपराह्णे भारतदलं श्रीलंका दलं सम्मुखीकरिष्यति। भारतीय दलं अष्टमवारं शीर्ष क्रमं प्राप्तुं प्रयत्नं करिष्यति। पेरिस नगरे प्रचल्यमाणे ओलंपिक क्रीडायां कांस्य पदक विजेत्रीं मनु भाकरमालक्ष्य उपराष्ट्रपतिः जगदीप धनखड़ः प्रधानमंत्री नरेन्द्र मोदी भूयशः शुभकामनाः प्रयच्छत् इति वार्ताः।